एषा रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रस्तुत्री रत्नावली शर्मा। प्रधानमन्त्री केपी शर्मा ओली अस्यैव श्रावणस्य षष्ठे दिवसे प्रतिनिधि सभातः विश्वासस्य मतं गृहीता। प्रधानमन्त्री ओली श्रावणस्य षष्ठे दिवसे रविवासरे विश्वासस्य मतं गृहीष्यति इति नेकपा एमाले दलस्य मुख्य सचेतक पदीयो महेश कुमार वर्तौला अज्ञापयत्। संविधानस्य षट्सप्ततितम्याः धारायाः द्वितीयोपधारायाः अनुसारेण नेकपा एमाले दलस्य अध्यक्षः ओली गताषाढमासस्य त्रिंशे दिवसे प्रधानमन्त्री पदे नियुक्तः आसीत्। प्रतिनिधिसभायाः विपुलतमस्य नेपाली कांग्रेस दलस्य समर्थनेन नेकपा एमाले दलस्य अध्यक्षः ओली चतुर्थवारं प्रधानमन्त्री पदे नियुक्तो वर्तते। संविधानस्य षट्सप्ततितम्याः धारायाः चतुर्थोपधारायाः अनुसारेण प्रधानमन्त्री ओली विश्वासस्य मतं गृहीता। द्वयोः द्वयधिकानां वा दलानां समर्थने नियुक्तेन प्रधानमन्त्रिणा त्रिंशद्दिनानाम् अभ्यन्तरे प्रतिनिधिसभातः विश्वासस्य मतग्रहणस्य सांविधानिकी व्यवस्था वर्तते। प्रधानमन्त्री केपी शर्मा ओली भाषते द्वयशीत्युत्तर द्विसहस्रतम वैक्रमाब्दम् यावत् नेपालं मार्गाश्रित मानवरहितं देशं विधातुं सर्वकारः प्रतिबद्धो वर्तते। बालुवाटार वर्तिनी प्रधानमन्त्री निवासे मानव सेवाश्रमस्य प्रतिनिधिभिस्सह ह्य सम्भूते मेलने प्रधानमन्त्री ओली सर्वकारस्य संघटनस्य अनन्तरं मन्त्रिपरिषदः प्रथमोपवेशेन वर्तमानार्थिक वर्षस्य अभ्यन्तरे मार्गाश्रिताः बालिकाः उद्धर्तुं निर्णीतमस्ति इति असूचयत्। मेलनी आश्रमस्य प्रमुख संस्थापकः केन्द्रीय अध्यक्षः रामजी अधिकारी सर्वकारस्य वर्तमानार्थिक वर्षस्य अभ्यन्तरे नेपालः मार्गाश्रित मानव मुक्तो विधास्यते इति संकल्पं पूरयितुं मानव सेवाश्रमेण सर्वकारस्य सहयोगी भूत्वा अभियानमिदं सफलयितुं प्रवर्तते इति प्रतिबद्धताम् अभिव्यक्तम्। प्रधानमन्त्री केपी शर्मा ओली सांसदं महेश कुमार वर्तौला इत्यमुं प्रतिनिधिसभायाः सत्तापक्षस्य मुख्य सचेतक पदे मनोनीतवान् अस्ति। नेकपा एमाले दलस्य संसदीय दलस्य नेता च प्रधानमन्त्री ओली सप्तसप्तत्युत्तर द्विसहस्रतम वैक्रमाब्दस्य विधानस्य त्रिसप्तत्युत्तर द्विसहस्रतम वैक्रमाब्दस्य संघीय संसदः पदाधिकारिणां सदस्यानां पारिश्रमिक सौविध्य सम्बद्धादि नियमस्य च अनुसारेण सत्तापक्षस्य मुख्य सचेतक पदे वर्तौला इत्यमुं नियुक्तवान् अस्ति। प्रधानमन्त्रिणा केपी शर्मा ओलिना नेपाली भाषा साहित्य कला क्षेत्रेषु योगदानस्य प्रदातारो विभिन्न महानुभावः छिन्नलता पुरस्कारेण सम्मानितः वर्तन्ते। गीतकारस्य रमूलादेवीशः छिन्नलतायाः द्वयधिकशततम्याः जन्मजयन्त्याः अवसरे ह्य काष्ठमण्डपे आयोजिते कार्यक्रमे प्रधानमन्त्री ओली पुरस्कारममुं प्रादात्। प्रधानमन्त्री ओली त्यधिक द्विसहस्रतम विक्रम वर्षस्य छिन्नलता गीत पुरस्कारं गीतकाराय भूषण खरेलाय, संगीत पक्षस्य पुरस्कारं संगीतकाराय रेडियो नेपालस्य संगीत शाखा प्रमुखाय मनराजा नकर्मी इत्यस्मै, गायन पक्षस्य पुरस्कारं शिव परियार इत्यस्मै, युव पक्षस्य पुरस्कारं मेनुका पौडेलाय च प्रदत्तवान्। एवमेव प्रधानमन्त्री ओली गत विक्रम वर्षेण छिन्नलता पुरस्कारेण गीतकारं वीरेन्द्र पाठकं, संगीतकारं चण्डी प्रसाद काफ्लेभिदम, गायिका मनिला सोताङ इतिमाम, गायकम भूपु पाण्डेभिदम च सममानयत। छिन्नलता पुरस्कारस्य वित्तराशि गीत संगीत गायन पक्षस्य लक्षं रूप्यकाणि, युव पुरस्कारस्य 50,000 च वर्तन्ते। राष्ट्रपतिः रामचन्द्र पौडेलः सर्वकारस्य महान्यायाधिवक्तृपदे रमेश बडालं नियुक्तवान् अस्ति। प्रधानमन्त्रिणः केपी शर्मा ओलिनः परामर्शेन राष्ट्रपतिना पौडेलेन संविधानस्य 57-ऐकशततम्याः धारायाः द्वितीयोपधारायाः अनुसारेण वरिष्ठाधिवक्ता बडालः महान्यायाधिवक्तृपदे नियुक्तोऽस्ति इति राष्ट्रपतेः कार्यालयस्य प्रवक्त्र्या शैलजा रेग्मी भट्टराई इत्यनया प्रकाशितायां विज्ञप्तौ उल्लिखितमस्ति। संचार सूचना प्रविधि मन्त्री पृथ्वी सुब्बा गुरूङ कथयति विज्ञापन क्षेत्रं विस्तार्य राजस्वस्य आयार्जनस्थलं वर्धनीयम्। विज्ञापन समितेः गतिविधिनां विषये अभिरुचिं प्रकटयन् मन्त्री गुरूङ विज्ञापन क्षेत्रे विद्यमानस्य वित्त क्षेरणस्य नियन्त्रणाय निरदिशत्। मन्त्री गुरूङ 30,000 रूप्यकाणां विज्ञापन क्षेत्रे त्रयोदशाब्जानामेव रूप्यकाणां विनिमयस्य स्थितिं बाह्य विज्ञापन स्थानीय स्तरे विंशति अब्जानाम विज्ञापनस्य क्षेत्रे अब्ज द्वयस्यैव रूप्यकाणाम विधीयमानम राजस्वस्य संकलनं च प्रति चिन्ताम प्रकटयन् एतदर्थं संघीय प्रदेश स्थानीय स्तरै संयुक्त रूपेण प्रयासो विधेय इति अवदत्। शिक्षा विज्ञान प्रविधि मन्त्री विद्या भट्टराई निशुल्कम अनिवार्यं च पञ्चसप्तत्युत्तर द्विसहस्रतम विक्रमवर्षीय शिक्षाधिनियमस्य गत विक्रमवर्षीय विद्यालय शिक्षा विधेयकस्य च मध्ये सामञ्जस्यम् अन्वेष्य कार्यं विधास्यते इति सूचयति। प्रतिनिधिसभायाः अन्तर्गतायाः शिक्षा स्वास्थ्य सूचना प्रविधि समितेः ह्यस्तनोपवेशे मन्त्री भट्टराई निःशुल्कम् अनिवार्यं च शिक्षाधिनियमस्य क्रियान्वयनस्य समयः प्राप्तोऽस्तीत्यतः एतदर्थं मासाभ्यन्तरे संरचना निर्मास्यते इति अज्ञापयत्। गृहमन्त्रिणा रमेशलेखकेन सह नेपालस्य कृते भारतीय राजदूतः नवीन श्रीवास्तवः ह्यः शिष्टाचार मेलनम् अकरोत्। मन्त्रालये विहिते तयोर्मेलने भारतीय सीमा प्रवेश बिन्दुभ्य नेपालं प्रवेशकेभ्य तृतीय राष्ट्रस्य नागरिकेभ्य अध्यागमन सेवायां विहितं अवरोधं निवार्य पूर्ववत् व्यवस्थायाः सीमा व्यवस्थापनस्य सीमाक्षेत्रे जायमानेषु अपराधेषु दृष्टानां समाहयानां समाधानाय निकायगत समन्वयं कृत्वा अग्रेवर्धनस्य च विषये विमृष्टमिति गृहमन्त्रिणः लेखकस्य नैज सचिवालयेन ज्ञापितं वर्तते। एवमेव ह्यैव ऊर्जो जलस्रोत सेचन मन्त्रिणा दीपक खड्का विधेन सह भारतीय राजदूतेन श्रीवास्तवेन विहिते मेलने नेपाल भारतोर्ज सहकार्यस्य विषये विमर्शनं सम्भूतमस्तीति ऊर्जो मन्त्रालयेन ज्ञापितं वर्तते। पेयजल मन्त्री प्रदीप यादवः पेयजल क्षेत्रे दृष्टायाः समस्यायाः समाधानाय प्रतिबद्धतां व्यनक्ति। पेयजलावकर नलिका विभागे ह्य आयोजिते कार्यक्रमे मन्त्री यादवः मन्त्रालये अतिरिक्तस्य वित्तस्य व्यवस्थां विधाय समस्यायाः समाधानाय अधिकतम प्रयासः विधास्यते इति प्रतिबद्धताम् अभिव्यनक्। मधेश प्रदेश सर्वकारेण गताषाढ मासस्य अष्टाविंशे दिवसे चितवन जनपदस्य सिमलताल स्थाने त्रिशूली नद्यां दुरापन्नायां बसयानस्य दुर्घटनायां मृतायां मधेश प्रदेशस्य जनानां परिवारेभ्य प्रति परिवारं एकलक्षं रूप्यकाणि प्रदीयते। मुख्यमन्त्री सतीश कुमार सिंह मधेश प्रदेशस्य जनतायाः पीडित परिवारेभ्य प्रति परिवारं एकलक्षं रूप्यकाणि प्रदास्यन्ते इति अभाषत। मुख्यमन्त्री सिंह प्रमुख जनपदाधिकारिणः परामर्शनस्य आधारेण सहयोग वित्तं प्रदीयते इति अवोचत्। बंगलादेशे सर्वकारीय सेवा पदस्थानानां विषयम् आदाय विहिते प्रदर्शने षण्णां जनानां मृत्योः पश्चात् तत्रत्यः विद्यालयाः विश्वविद्यालयाश्च अपरसूचनायाः प्रकाशनं यावत् पिधापिताः सन्ति इति समाचारः।